नमस्सर्वेभ्यः अद्य विभक्तिवर्गे द्वाविंशः पाठः जून मासस्य अष्टादशः दिनांकः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो। षष्ठी विभक्तिम् अधीयानाः स्मः। तत्र किञ्चित् पुनरावर्तनं कुर्मः। षष्ठी विभक्तिः द्वयोः पदार्थयोः सम्बन्धं द्योतयति, अतः सम्बन्धे षष्ठी इति सामान्यतया उच्यते। सः सम्बन्धः यः कोऽपि स्यात्, बहुविधाः सम्बन्धाः सन्ति, तत्र सर्वविधसम्बन्धं षष्ठीविभक्तिः द्योतयति। यथा रामस्य पिता, रामस्य पुत्रः, रामस्य राज्यं, रामस्य हस्तः इत्यादि। तत्र षष्ठीविभक्तेः रूपाणि अपि अस्माभिः ज्ञातानि। अकारान्तस्य पुल्लिङ्गस्य बालस्य बालयोः बालानाम् इति, नपुंसकलिङ्गे मित्रस्य मित्रयोः मित्राणाम् इति, आकारान्तस्त्रीलिङ्गे बालिकायाः बालिकयोः बालिकानाम्, ईकारान्तस्त्रीलिङ्गे गौर्याः गौर्योः गौरीणाम् इत्येवं रूपाणि भवन्ति। ततः गतवर्गे कृदन्तानां विषये अपि अधीतम्। धातुभ्यः द्विविधाः प्रत्ययाः योज्यन्ते, तिङ् प्रत्ययाः कृत् प्रत्ययाश्च। येषां तिङ् प्रत्ययः अन्ते श्रूयते ते तिङन्ताः, येषां च कृत् प्रत्ययाः अन्ते श्रूयन्ते ते कृदन्ताः। शताधिकाः कृत् प्रत्ययाः सन्ति, केचन सामान्यप्रत्ययाः सर्वेभ्यः धातुभ्यः योज्यन्ते, केचन विशेषप्रत्ययाः केभ्यश्चित् धातुभ्यः एव योज्यन्ते। तत्र प्रत्येकं कृत् प्रत्ययस्य विशिष्टः अर्थः भवति, अर्थम् अनुसृत्य एव प्रयोगः कर्तुं शक्यते। केषाञ्चन कृदन्तानां निर्माणमपि अस्माभिः दृष्टम्। यथा भाव अथवा क्रियावाचकस्य ल्युट् प्रत्ययस्य तथा क्तिन् प्रत्ययस्य करणं पठनं गमनं चलनम् इत्यादि ल्युट् प्रत्ययान्ताः, कृतिः गतिः मतिः सृष्टिः इत्यादयः क्तिन् प्रत्ययान्ताः। एते सर्वेपि क्रियां बोधयन्ति, क्रियामेव बोधयन्ति, नान्यत् किञ्चित्। सो दे जस्ट् इण्डिकेट् द प्लेन् क्रिया आर् आक्षन्। अन्ये अपि प्रत्ययान्ताः दृष्टाः, पूर्वमेव क्त क्तवतु प्रत्ययान्ताः दृष्टाः, इदानीं पक्ता श्रोता गन्ता इत्यादि तृच् प्रत्ययान्ताः, पाचकः कारकः गायकः नर्तकः इत्यादि कृत् कर्तृबोधकाः कृदन्ताः अपि दृष्टाः, ये कर्तारं बोधयन्ति। गन्ता इत्युक्ते गमनस्य कर्ता, द पर्सन् हु गोस्, भोक्ता द पर्सन् हु ईट्स्, सो दे कर्तृर्थकाः प्रत्ययाः। ततः कृदन्तस्य योगे षष्ठीविभक्तिः भवति। सो कस्य भवति? कर्तरि षष्ठी भवति अथवा कर्मणि षष्ठी भवति। रामायणं वाल्मीकेः कृतिः, वाल्मीकेः कृतिः अर्थात् वाल्मीकिः कृतवान् इत्यर्थः, अतः वाल्मीकिः कर्ता। वाल्मीकिः रामायणस्य कर्ता, वाल्मीकिः रामायणं कृतवान् रामायणस्य कर्ता अतः अत्र रामायणम् इति कर्म एवं कृदन्तयोगे कर्तरि अपि षष्ठी कदाचित् भवति कदाचित् कर्मणि भवति एतत्तु अधिकप्रयोगेनैव ज्ञातुं शक्यते पॉल प्रश्नः अस्ति वा
Oh yeah, when you have written Kridanta Yoga, I thought I heard you say Kridantasya Yoga.
Kridantasya Yoga is a split or a samasa being split. Kridantasya Yoga ha, Kridanta Yoga ha. It's a samasta pada. So both of them mean the same.
Right.
Yeah. Okay. So idanim adya shashti vibhakte hai. इतोपि कांश्चन अभ्यासान् कुर्मः सर्वनामपदानां षष्ठीविभक्तिः एतावता न दृष्टा तस्य तयोः तेषाम् इति पुल्लिङ्गे नपुंसकलिङ्गे च रूपं भवति सः इत्यस्यापि तस्य तयोः तेषां तत् इत्यस्यापि तस्य तयोः तेषां स्त्रीलिङ्गे तस्याः तयोः तासाम् एवमेव पुं नपुंसकयोः एतस्य एतयोः एतेषाम् इति स्त्रीलिङ्गे एतस्याः एतयोः एतासाम् अहम् इत्यस्य मम आवयोः अस्माकम् इति अत्र रूपद्वयम् अस्ति मम मे आवयोः नौ अस्माकं नः इति रूपद्वयं भवति इदानीम् एकं रूपं जानीमः मम आवयोः अस्माकम् एवं तव युवयोः युष्माकम् इति युष्मच्छब्दस्य रूपाणि तस्य तयोः तेषां तस्याः तयोः तासाम् एतस्य एतयोः एतेषाम् एतस्याः एतयोः एतासां मम आवयोः अस्माकं तव युवयोः युष्माकम् इत्येवं रूपाणि भवन्ति इदानीम् एतेषां रूपाणाम् अभ्यासं कुर्मः एकवचनवाक्यानि रचनीयानि अत्र कानिचन सर्वनामानि सन्ति तेषां षष्ठीविभक्तिः उपयोक्तव्या ये वक्तुमिच्छन्ति कृपया हस्तानुन्नयन्तु हरमंदर सिंह
तस्य पुस्तकम् एतस्याः पुस्तकम् मम पुस्तकम् तस्य पुस्तकम् तस्याः पुस्तकम् तव पुस्तकम् एतस्य पुस्तकम् एतस्य पुस्तकम्
सम्यक् इदानीम् अत्र कानिचन वाक्यानि सन्ति तत्र रिक्तं स्थलं पूरणीयं वाक्यं दृष्ट्वा तदनुगुणं पूरणीयम् राव्
Can you hear me?
Shruyate. Drishyate va?
Saha balakaha naam ramesha. Tasya balakaha naam ramesha.
Tasya balakasya iti bhave. Tasya
balakasya. Sorry. Right.
तस्य नाम
रमेश
तस्य बालकस्य नाम रमेशः
बालिकायाः
सर्वनाम्नः
तासा बालिकायाः पुस्तकं
पुनः
तासा
तस्याः
बालिका
एकवचनं सा बालिका एतत् तस्याः पुस्तकम् सा बालिका एतत् तस्याः पुस्तकम् वेङ्कटेश्वरन्
एतत् मम मित्रम् एतस्य गृहम् एते एव अस्ति
सम्यक् एतत् मम मित्रम् एतस्य गृहं समीपे एव अस्ति
अहं छात्रः मम नाम रमेशः
सम्यक् अहं छात्रः मम नाम गणेशः बालचन्द्रन्
त्वं कदा आगता तव अनुजः कुत्र कुत्र
सम्यक् त्वं कदा आगता तव अनुजः कुत्र
तस्याः बालिकायाः नाम गिरिजा
सम्यक् तस्याः बालिकायाः नाम गिरिजा उत्तमम् एतेषु वाक्येषु कस्यचित् अर्थः न ज्ञायते चेत् कृपया पृच्छतु प्लीज़् आस्क् ऐ मीन् दीस् आर् आल् कामन् सेण्टेन्सेस् बट् इफ् यु डु नाट् अण्डर्स्टाण्ड् एनी सेण्टेन्स् फुल्ली प्लीज़् आस्क् गीता रामचन्द्रन् इदानीं द्विवचनवाक्यानि वक्तव्यानि सर्वनाम्नां द्विवचनरूपाणि उपयुज्य वाक्यानि
सः तयोः तयोः नृत्यं
तयोः नृत्यम्
एतस्याः नृत्यं
द्विवचनम्
एतयोः नृत्यं आवयोः नृत्यं तस्य तयोः नृत्यं सा इस् तयोः नृत्यं
सम्यक् वदतु अग्रे समापयतु दादा कण्टिन्यू
Shall I cut?
Yes, yes.
Oh, okay. Tvam is yuvayoho nrityam etayoho nrityam etayoho nrityam
Samyak. Dhanyavada. Edani, evameva riktasthalam सर्वनामपदस्य षष्ठी विभक्त्या पूरणीयं मलकोण्डय्य
हरि ओम् एतौ गजौ तस्य तयोः तयोः देहः
एतौ अस्ति
तस्य तस्य तयोः एतस्य एतस्योः एतस्योः देहः
एतयोः देहः
एतयोः देहः पर्वताकारः अस्ति
एतौ गजौ एतयोः देहः पर्वताकारः
पर्वताकारः अस्ति आवां बालौ आवयोः शाला दूरे अस्ति
सम्यक् आवां बालौ आवयोः शाला दूरे अस्ति पाल्
हे मम अनुजे अहम् तयोः अग्रजः.
सम्यक्. ते मम अनुजे, अहम् तयोः अग्रजः.
तौ आम्रवृक्षौ तयोः फलानि बहु मधुराणि.
तौ आम्रवृक्षौ तयोः फलानि बहु मधुराणि. थैंक यू. रामानुजन.
युवां गौ द्वयोः माता कुत्र अस्ति?
युवयोः माता कुत्र अस्ति?
एते मलिनकूप्यौ एतयोः जलं पानयोग्यं नास्ति.
सम्यक्. एते मलिनकूप्यौ एतयोः जलं पानयोग्यं नास्ति. इदानीं बहुवचनवाक्यानि रचनीयानि. सर्वनामपदानां बहुवचनरूपाणि उपयुज्य. उमाशङ्करी. I think you have muted yourself. You have to unmute.
Esham Sala.
Sorry? Esham. Ah, Shruyate.
Esham Sala. Esham Sala. Asmasu Sala. Asmakam Sala. तेषां शाला. तासां शाला. युष्माकं शाला. एतस्याः शाला.
एतस्य इति बहुवचनम्.
एतयोः एतेषां शाला. एतेषां शाला.
सम्यक्. शारदा गोपाल.
एतानि गृहाणि एतेषां निर्माणं मया कृतम्.
एतानि गृहाणि एतेषां निर्माणं मया कृतम्.
एताः शाटिकाः सुन्दर्यः. एतासां मूल्यं किम्?
सम्यक्. एतासां मूल्यं किम्? शिवराम कुलकर्णी.
वयं छात्राः, अस्माकं कर्तव्यम् अध्ययनम्.
वयं छात्राः, अस्माकं अध्ययनम्.
ते अध्यापकाः, वयं तेषां शिष्याः.
ते अध्यापकाः, वयं तेषां शिष्याः. श्रीधर श्रीनिवास.
नमस्ते. यूयम् आगच्छत. युष्माकम् आगमनेन ते सन्तुष्टाः भवन्ति.
युष्माकम् आगमनेन ते सन्तुष्टाः भवन्ति.
ताः पत्रिकाः पत्रिकाणां पठनं तेषां पठनं
पत्रिकाः स्त्रीलिङ्ग.
तासां पठनं समाप्तम्.
सम्यक्. तासां पठनं समाप्तम्. अत्र कश्चन प्रश्नः अस्ति. लास्ट् मीनिङ्ग् पूर्वतन अभ्यासे अन्तिमवाक्यस्य अर्थः. एताः मलिनकूप्यः मलिनाः कूप्यः बॉटल्स डर्टी और अनक्लीन एतासां जलं पानयोग्यं नास्ति सो द वाटर इज नॉट देयर वाटर इज नॉट फिट टू ड्रिंक पानस्य योग्यं पानयोग्यं अत्र सर्वेषां वाक्यानां अर्थः अवगम्यते इन दिस एक्सरसाइज आई थिंक दे आर ऑल फेयरली इदानीम् अग्रे गच्छामः षष्ठी विभक्तौ अन्तिमः अंशः कृत्यप्रत्ययाः इति सन्ति अस्माभिः गतवर्गे कृदन्ताः अधीताः धातुभ्यः प्रत्ययाः योज्यन्ते तेषां कृत् इति नाम भवति तेषु कृत् प्रत्ययेषु मया उक्तं कृत् प्रत्ययाः प्रायः सार्धैकशतं नियर्ली 150 सन्ति तेषु सप्त प्रत्ययाः कृत्यप्रत्ययाः इति उच्यन्ते सो कृत्यप्रत्ययस् इस् अ सब् क्लास् आफ् कृत् प्रत्ययस् सो अबौट् 7 प्रत्ययस् अमोङ्ग् आल् दोस् कृत् प्रत्ययस् दे आर् डेसिग्नेटेड् एस् कृत्य सो देर् इस् नो मीनिङ्ग् फार् कृत्य हियर् इट् इस् जस्ट् अ नेम् लैक् वृद्धि आर् गुण संज्ञा कृत्याः इति संज्ञा सो सप्त प्रत्ययाः सन्ति येषां कृत्यप्रत्ययाः इति उच्यन्ते अस्माभिः रूपत्रयं दृश्यते चेदलम् इदानीं करोति इत्यस्ति तस्मात् कर्तव्यं करणीयं कार्यम् इति रूपत्रयं सिध्यति कर्तव्यम् इति तव्यत् प्रत्ययः करणीयम् इति अनियर् कार्यम् इत्यत्र ण्यत् इति प्रत्ययः एते सर्वेपि कृत्यप्रत्ययाः The tavyat, aniyar and the yat or nyat. So they are called as kritya pratyayas. Okay. Evam eva gachyati ityasti che gantavyam, gamaniyam, gamyam. Pathati ityatra, pathitavyam, pathaniyam, pathyam. Likhati, lekhitavyam, lekhaniyam, lekhyam. सो एतानि सर्वाणि रूपाणि कृत्यप्रत्ययान्तानि इति उच्यन्ते मेन्ली द तव्य अनियर् एण्ड् द यत् आर् ण्यत् सो दीस् आर् फार्म्स् दट् वी आर् आल् फेमिलियर् वित् सो एते प्रत्ययाः कस्मिन् अर्थे भवन्ति द कामन् मीनिङ्ग् वी नो इस् द विध्यर्थ कर्तव्यं मस्ट् बी डन् गन्तव्यं मस्ट् बी गान् Patitavyam must be read. So that is the meaning in which we commonly use these words, right? So something that has to be done or that must compulsorily be done. So there are also other senses in which they are used. They can be used in the sense of that something that can be done. Okay? Arhaarthe. Or just something that is done. Karmaarthe. So there are different senses in which these words are used. The most common sense is the vidyartha. The must be done इत्यर्थे भवति सो एतेषां प्रयोगः यदा भवति तदा विभक्तिद्वयम् उपयोक्तुं शक्यते एका षष्ठी विभक्तिः अपरा तृतीया विभक्तिः कर्तरी द कर्तृपद वि नो दट् वित् कृदन्त द कर्तृपद गेट् षष्ठी सो इफ् इट् इस् अ कृत्यप्रत्ययान्त Then the Kartrupada can be either in Shashti or in Tritiya. Tha Lokahitam Mama Karaniyam or Maya Karaniyam. So the famous the song uses Shashti Lokahitam Mama Karaniyam. But Lokahitam Maya Karaniyam is also correct. In both cases, Aham is the Karta. Must be done by me. I am the one who has to do Lokahita. What is good for the world. Atah Tatra, Shashti Api Bhavati, Tritiya Api Bhavati. Lokahitam Mama Karaniyam Maya Karaniyam. Evam. Eshaha Pathaha Chhatranam Pathitavyaha Chhatraihi Pathitavyaha. Must be read by the students. Meaning is the same. Meaning will not change. You are just changing the vibhakti. The meaning is the same. This lesson must be read by the students. Rakshasaha Ramena Vadhyaha Ramasya Vadhyaha. The demons must be killed. Vadhya Vadha is from Hanadatu, which is to kill. So must be killed by Rama. Rakshasaha Ramena Vadhyaha Ramasya Vadhyaha. So Karaniyam Patitavyaha Vadhya. So when we are using these three pratyayas, then we can use either Tritiya or Shashti. Ubhayohu Vibhaktyohu Prayogaha Bhavitum Arhati. Idanim Atra Shashti Vibhaktim Upayujya Ekavachana Vakyani Vaktavyani. ఏ వక్తుం ఇచ్ఛంతి కృపయా హస్తం ఉన్నయంతు. శారద శంకర నారాయణ నశ్రూయతే, ప్లీజ్ చెక్ ఇఫ్ యువర్ మైక్ ఇస్ కనెక్టెడ్ వెల్. Okay. Somebody else? Malakondaya Mohanji.
Hari Om.
Balah
Karyam Kalu. కార్యం కరణీయం.
నా నా తత్ర తృతీయా అథవా షష్ఠి ఉపయోక్తవ్యో.
బాలస్య కర్తవ్యం.
బాలస్య కార్యం.
బాలస్య కార్యం
తృతీయా.
బాలేన బాలేన కార్యం.
సమ్యక్. బాలస్య కార్యం బాలేన
బాలేన కార్యం. సారీ, దేవ్యాః కార్యం. దేవ్యా కార్యం.
దేవ్యా కార్యం. దేవ్యాః కార్యం. దేవ్యా కార్యం.
కార్యం మమ కార్యం. మయా కార్యం. మిత్రస్య కార్యం. మిత్రేణ కార్యం. అంబాయాః కార్యం. అంబయా కార్యం.
Thank you. Next. Uma Shankari.
Das.
Amba.
So, Shruyate. Amba. Ambayaha Karyam. Ambayaha Karyam.
Ambayaha iti Karyam. Athava Ambaya Karyam.
అంబయా కార్యం. తవ కార్యం. తవ కార్యం. త్వయా కార్యం.
సమ్యక్. తవ కార్యం. త్వయా కార్యం.
త్వయా కార్యం. ఏతస్యః కార్యం.
ఏతస్య కార్యం.
ఏతస్య కార్యం. ఏతయా కార్యం. ఏతేన.
ఏతేన కార్యం. ఏతస్య కార్యం. ఏతేన కార్యం.
ఏతేన కార్యం. తస్యాః కార్యం. తస్యాః కార్యం. తయా కార్యం.
తస్యాః కార్యం. తయా కార్యం. ఇదానీ ద్వివచన వాక్యాన్ని రచయామః. ద్వివచన పదానాం షష్ఠీ తథా తృతీయ ప్రయోక్తవ్య. హర్మందర్ సింహ్ మహోదయ.
మిత్రే పఠనీయం. మిత్రయోః పఠనీయం. మిత్రాభ్యాం పఠనీయం.
సమ్యక్.
మిత్రేభ్యం.
మిత్రాభ్యాం. సమ్యక్. మిత్రయోః పఠనీయం. మిత్రాభ్యాం పఠనీయం.
తయోః పఠనీయం. తేభ్యాం.
తాభ్యాం.
ताभ्याम पठनीयम्। आवयोः पठनीयम्। अस्मभ्यं पठनीयम्।
मया आवाभ्याम
पठनीयम्।
आवयोः पठनीयम्, आवाभ्याम पठनीयम्।
नार्याः पठनीयम्
द्विवचनम्।
नारयोः पठनीयम्, नार्योः पठनीयम्, नारीभ्याम् पठनीयम्।
सम्यक्, धन्यवादः। पॉल,
यस, एते पठनीयम्। सो एते
बालिके,
एतयोः, ओ ओ ओ या ओके, बालिके, बालिकयोः पठनीयम्, बालिकाभ्याम् पठनीयम्, एतयोः पठनीयम्, एताभ्याम् पठनीयम्। छात्रयोः पठनीयम्, छात्राभ्याम् पठनीयम्, युवयोः पठनीयम्, अस्माभ्याम् युवाभ्याम् पठनीयम्।
युवयोः पठनीयम्, युवाभ्याम् पठनीयम्। थैंक यू। नेक्स्ट, इदानीं बहुवचनवाक्यानि, बहुवचने षष्ठी तथा तृतीया विभक्त्योः प्रयोगः कर्तव्यः। राव महोदय।
यस, अस्माकं कर्तव्यं अस्माभ्यं पठनीयम्,
अस्माभिः गन्तव्यम्,
अस्माभिः पठनीयम्। ओके, सख्यानां पठनीयं, गन्तव्यं,
सखीनां गन्तव्यं,
सखीनां,
सख्यः इति स्त्रीलिङ्गे बहुवचनं, सखी, सख्यौ, सख्यः।
सखीनां गन्तव्यं, सख्यैः गन्तव्यं,
सखीभिः गन्तव्यम्,
तेषां गन्तव्यं, तस्यै,
ते,
तयो,
तेन,
तेन तयोः,
तेन ताभ्यां,
तेषां,
तेन ताभ्यां, तैः, पुल्लिङ्गे, ते इस् पुल्लिङ्गे,
तैः,
तेषां गन्तव्यं, तैः गन्तव्यं,
तैः गन्तव्यं, पुरुषाः, पुरुषाणां गन्तव्यं, पुरुषैः गन्तव्यं।
सम्यक्, पुरुषाणां गन्तव्यं, पुरुषैः गन्तव्यम्। शारदा
नमस्ते।
हा वदतु।
युष्माकं गन्तव्यं, युष्माभिः गन्तव्यं,
सम्यक्
मित्राणां गन्तव्यं मित्रैः गन्तव्यं
मित्रैः गन्तव्यं
एतासां गन्तव्यं एताभिः गन्तव्यं महिलानां गन्तव्यं महिलाभिः गन्तव्यं
सम्यक् एवं कृत्यप्रत्ययानां योगे षष्ठी विभक्तिः अपि भवति तृतीया विभक्तिः अपि भवति इदानीं कानिचन वाक्यानि सन्ति तिङन्ते सन्ति वयं पठामः यथा अहं करोमि इत्यस्ति तदा तस्य परिवर्तनं कर्तव्यं यथा अहं करोमि इत्यस्ति चेत् मया करणीयं मम करणीयं यु केन् यूस् एनी आफ् द कृत्यप्रत्ययान्तर्स् विच् एवर् एनी वन् इस् फैन् सो यु केन् से मया कर्तव्यं मम कर्तव्यम् आर् मया करणीयं मम करणीयं सिमिलर्ली यदि अहं त्वं लिखसि इत्यस्ति चेत् त्वया लेखितव्यं तव लेखितव्यम् इत्येवं परिवर्तनं करणीयं तिङन्तवाक्यस्य कृदन्तवाक्ये श्रीधर्
नमस्ते वयं पठामः अस्माकं पठितव्यम् अस्माभिः पठितव्यम्
सम्यक् अस्माकं पठितव्यम् अस्माभिः पठितव्यम्
ते गच्छन्ति ते तेषां गन्तव्यम् तैः गन्तव्यम्
सम्यक् तेषां गन्तव्यम् तैः गन्तव्यम् नेक्स्ट् वेङ्कटेश्वरन्
सः क्रीणाति क्रीणाति तस्य कर्तव्यम्
क्रीणाति क्रेतव्यम्
क्रीणाति
क्रेतव्यम्
क्रेतव्यम्
तस्य क्रेतव्यम्
तस्य क्रेतव्यं तेन क्रेतव्यम्
तस्य क्रेतव्यं तेन क्रेतव्यम्
एषा नृत्यति एतेषा एतस्याः नर्तव्यं
नर्तितव्यं
एताभिः नर्तितव्यम्
एकवचनम् एतस्याः नर्तितव्यम् और् एतया नर्तितव्यम् शारदा गोपाल
पूर्व युवां खादतः युवयोः खादनं
खादनीयं
खादनीयं खादनम् अपि अस्ति किल
खादनमस्ति बट् वित् खादनं यु विल् नाट् तृतीया यु विल् गेट् बिकास् इट्स् नाट् क्रोध्य युवाभ्यां
ताभ्यां युवाभ्यां खादनीयम् युवाभ्यां खादनीयं
सम्यक् युवयोः खादनीयं युवाभ्यां खादनीयम्
ताः शृण्वन्ति तासां श्रोतव्यं
सम्यक्
ताभिः श्रोतव्यम्
Tasam Shrotavyam, Tabhihi Shrotavyam. Anybody else? Those who have not tried, would like to try? Balachandran?
Balah Likhati. Balena Ekaniyam. Balasya Ekaniyam.
Samyak. Balena Lekaniyam. Balasya Lekaniyam.
Balikaha Hasanti. Balikaya.
Bahuvachanam.
Balikabhi hasanti. Hasitavyam.
Hasitavyam.
Hasitavyam. Balikabhi hasitavyam. Balikanam hasitavyam.
Samyak. Balikabhi hasitavyam. Balikanam hasitavyam. Anybody else would like to try? This is the last exercise for the day. So, you can try it out. Padmanabhan.
I'll try it.
Aswaha dhamanti. Aswanam dhamitavyam. Aswaihi dhamitavyam. Sanakayoho Rakshitavyam. Sanakabhyam Rakshitavyam.
Samyak. Shunakayoho Rakshitavyam. Shunakabhyam Rakshitavyam. Yes, Paul.
Girija Namati. Girijaya namantavyah
nantavyam.
Nantavyam. Okay, and girijayah nantavyam.
Girijaya nantavyam. Girijayah nantavyam.
Rani Padanti. So it's Mitrasya. Mitraihi.
Excuse me, just one moment. Sorry.
Mitraihi vadaniyam. Mitranam vadaniyam. Looks like somebody just woke up. Okay.
Yeah.
Somebody just woke up. Right. Okay.
Yeah. I know.
Pranam vadaniyam. Mitranam vadaniyam. And mitraihi vadaniyam.
Samyak. Mitranam vadaniyam. Mitraihi vadaniyam. Thank you. So prashnah asti vaktavyam. Vaktavyam is not from this dhatu. This dhatu would be vaditavyam, but we use vaktavyam in the same meaning. So mitranam vaktavyam, mitraihi vaktavyam ityapi sadhu eva. Okay. So next, Shivaram.
Devaha dadati. Devaihi dātavyam. Devanam dātavyam. Devanam dāniyam. Devanam dātavyam. Devanam dāniyam. Devaihi dātavyam. Devaihi dāniyam.
Correct. The other form is deyam. Devaihi deyam. Devanam deyam. Yes.
Naryaha pachanti. Naryadihi
pachanibhihi.
Naribhihi pachaniyam. Narinam pachaniyam. Naribhihi pachitavyam.
Paktavyam.
Paktavyam. Paktavyam. Narinam paktavyam.
Samyak. Anybody else would like to try? Others, those who have not tried, please volunteer. There are only four more sentences, I guess. So, two people. Sharma, who are you?
Taya Si Kattavyam. Tasyaha Si Kattavyam. Maya smartavyam. Mama smartavyam.
Maya smartavyam, mama smartavyam. Samyak. The last. Rao.
Yeah. Tvam agachasi. Tvaya agantavyam. Tena ta
shishvam.
Tena agantavyam.
Shishti. Shishti of tvam.
Tvam.
Tava.
Tava agantavyam.
Tvaya agantavyam, tava agantavyam.
Tau tishtataha. Tau is dvivachana. So, tavabhyam tishtitavyam.
Tavabhyam sthatavyam.
Tavabhyam tishtitavyam.
Sthatavyam.
What is it?
Sthatavyam.
Tavabhyam. Tabhyam statavyam. Tayoho statavyam.
Samyak. Tabhyam statavyam. Tayoho statavyam. So, atra esyapi maya treni rupani darshitani esya kasyapi prayogaha kartum shakyate. Aham vadami, the forms in different pratyayas fall beyond the scope of this particular course because we are dealing with vibhaktis. But just in case you would like to know, I will just recite the forms in the three different things so you can refer to it if you would like. So, pathati would be pathaniyam, pathitavyam, pathyam. So, gachanti, gantavyam, gamaniyam, gamyam. Krinati, kretavyam, krayaniyam, kreyam. Nrityati, nartitavyam, नर्तनीयं नृत्यं खादति खादितव्यं खादनीयं खाद्यं शृण्वन्ति श्रोतव्यं श्रवणीयं श्रव्यं लिखति लेखनीयं लेखितव्यं लेख्यं हसन्ति हसनीयं हसितव्यं हास्यं धावन्ति धावनीयं धावितव्यं धाव्यं रक्षति रक्षणीयं रक्षितव्यं रक्ष्यं नमति नन्तव्यं नमनीयं नाम्यं वदन्ति वदितव्यं वदनीयं वाद्यं ददाति दातव्यं दानीयं देयं पचन्ति पक्तव्यं पचनीयं पाच्यं स्वीकरोति स्वीकर्तव्यं स्वीकरणीयं स्वीकार्यं स्मरामि स्मर्तव्यं स्मरणीयं स्मार्यम् आगच्छति आगन्तव्यम् आगमनीयम् आगम्यम् तिष्ठति स्थातव्यम् स्थानीयम् स्थेयम् सो दीज फॉर्म्स यू विल नो ईदर व्हेन वी डू द सेक्शन ऑन कृदंतस और द अर्धधातुकस यस यू कैन नो थ्रू दोस
स्वामी जी व्हाट वाज द लास्ट वन यू हैड
स्थेयम् स्थातव्यम् स्थानीयम् स्थेयम्
That theyam?
Stheyam.
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 Yeah.
Yeah, okay.
So, akarantas usually. Deyam, stheyam, peyam. So, they get the etva. Okay.
Okay. I just didn't hear the sakara for some reason. That was...
Yes. So. Thank you. Okay. So, anyaha eka prashna hasti. Are krityas always used in kartari sense? They are never used in kartari sense. They are used in bhava karmano. It is always bhave, which is the kriya itself, or karmani. Okay. Always bhave or karmani. So that is why we have, we don't have the kartrupada in prathama. Always. If it is kartari, then the kartrupada would be in prathama. Since it is karmani, the karma pada will be prathama. Asmabhihi pathaha patitavyaha. और पठनीयः तैः ग्रामः गन्तव्यः सो द कर्मपद इज इन प्रथम सो इट दीस आर ऑल कर्मणि और भावे प्रत्ययः अन्य प्रश्नाः सन्ति वा
Could I ask one thing about, like, last week you were talking about nul and then you actually said it was yup?
Yes.
And that kind of left me a little bit, I don't know, perplexed on it a little bit. And then I was even wondering how yup got that form. That must be replaced by something also.
Yeah, you, any pratyaya with you is always replaced by ana. Okay. So, vu is always replaced by aka.
Vivara na kao.
Exactly. So,
okay.
Ana is always liut or liu, and akka is usually nul or such. This one.
Right. I knew it was something. I couldn't remember what it was. Thank you. Okay. All right.
Ekaha prashnaha. Devaha is the ekavachanam. Yes, Devaha Dadati. Devaha iti ekavachanam. Sorry, I think I didn't get the question. Venkateshwaran Mahore, kaha prashna?
Devaha Dadati, Devasya Dadati, Devena Dadati. That's told in Mahore.
Is it? Oh, sorry, I didn't notice maybe. Devaha is, the one given here is ekavachanam. So, Devena Dadati, Devasya Dadati. Yes. There is one more question. What is the name of the pratyaya in Pathyam, Khadyam, etc.? Okay, I didn't mention because there are actually two pratyayas. One is Yat and the other is Nyat. Both of them you hear the Ya. Say for example, in Deya or Steya, it is Yat. But in case of, say, Pathya or Karya, it is Nyat. Okay. So both of them remain as Ya. That is, you hear Ya at the end. So there is a slight difference in Prakriya or how to derive the word depending on what is the difference. Okay. Usually for Halanta Dhatus and for Rukaranta Dhatus, we have Nyat. For the Ajanta Dhatus, we have Yat. Okay. So Yat and Nyat are two different Pratyayas. So at this stage, I mean, it might be difficult to distinguish. That is why I didn't mention. So they are the Yat and Nyat Pratyayas. Okay. Any other questions? Okay. So, atra shashti vibhakti hi samapta. Shashti vibhakti hi to bahu sulabha eva. So, it is a kind of miscellaneous. If there is no other vibhakti, you can always, almost always, you can use shashti and get away with it. Okay. So, there is something which is frequently used by grammarians to justify all sorts of prayogas. We call it shesha shashti. So, the sutra, Paninian sutra itself says shashti sheshe. For the rest, you have Shashti. So, he doesn't define particular cases for Shashti. So, for everything else, you have Shashti. Anything else which conveys any kind of relation between two things. So, if it is not covered by all other Vibhaktis are like exceptions. So, if not, you have Shashti. So, Shashti Vibhakti is very easy. So, in addition, you should remember that Kridanta. With Kridantas, you have the Kartari or Karmani Shashti. So, Shashti Vibhaktau Dvayoho Padarthayoho Sambandha Vachika Shashti Vibhaktihi Iti Jnatam Shashti Vibhaktehe Rupani Api Drishtani Kridantaha Namake Kechana Kridantaha Drishtaha Kridantayoge Kartari Karmanicha Shashti Vibhaktihi Drishta Kritya Pratyaya Yoge Aniyar Tavyat Yatinyat Ityetesham Yoge Shashti Athava Tritiya Iti Vibhakti Dvayam Bhavati Ityapi Asmabhihi Drashtam Agrima Varge Saptami Vibhaktim Arabhamahe Ramo Rajamani Sada Vijayate Ramam Ramesham Bhaje Ramen Abhihata Nishachara Chamuhu Ramaya Tasmai Namaha Ramannasti Parayanam Parataram Ramasya Dasosmyaham Rame Chittalaya Sada Bhavatume Bho Rama Mamuddhara Guru Reva Gatihi Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave Na Guroh Paramam Shishurasmi Guroho Matirasti Gurau Mamapahi Guroho